शृण्वन्तु विश्वे अमृतस्य पुत्र आये धामानि दिव्यानि कस्तु वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्ता तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते अयनाय नान्यः पन्था विद्यते अयनाय नान्यः पन्था विद्यते अयनाय
বলো পালিয়ে গিয়ে